कुसुमा संकाशं विभुजं पद्महस्तकं सिंदूरांबरमाल्यं च रक्तगंधानुलेपनं माणिक्यरत्नखचित सर्वाभरणभूषितं सप्ताश्वरतावाहं तु मेरुं चैव प्रदक्षिणं देवासुरवरैर्वन्द्यं कृणिभिः परिसेवितं ध्यायेत् पठेत् सुवर्णाभं सूर्यस्य कवचं मुदा गृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् आदित्यो लोचने पातु श्रुति पातु दिवाकरः प्राणं पातु सदा भानुः मुखं पातु सदा रविः जिह्वां पातु जगन्नेत्रः कंठं पातु विभावसुः स्कंधौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः करावब्जकरः पातु हृदयं पातु भानुमान् मध्यं पातु सुसप्ताश्वो नाभिं पातु नभो मणिः द्वादशात्मा कटिं पातु सविता पातु सक्तिनी ऊरु पातु सुरश्रेष्ठो जानुनी पातु भास्करः जिङ्गे मे पातु मार्ताण्डो कुल्फौ पातु त्विषां पतिः पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभं सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणं कल्पवृक्षसमाकीर्णं कदम्बकुसुमप्रियम् अशेषरोगशान्त्यर्थं ध्यायेदादित्यमण्डलं सिन्दूरवर्णाय सुमण्डलाय सुवर्णरत्नाभरणाय तुभ्यं पद्मादिनेत्रे च सुपङ्कजाय ब्रह्मेन्द्रनारायणशङ्कराय संरक्तचूर्णं ससुवर्णतोयं सकुङ्कुमाभं सकुशं सपुष्पम् प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद प्रदत्तमादाय च हेमपात्रे प्रशस्तनादं भगवन् प्रसीद इति श्रीपद्मपुराणे आदित्यकवचः सम्पूर्णः।